श्री संत राम स्तोत्रम योगींद्रम विश्ववंद्यम सकल गुण निधिं श्रीयुतं स्वात्मनिष्ठं क्लेशातीतं ममेशं यचल सुखकरं सच्चिदानन्दरूपं शिष्याणां ज्ञानदं तं विगतमलयुतं किंकराणां हृदयस्थं वन्देहं सिद्धियुक्तं परमपदविदं श्रीगुरुं संतरामं स्वात्मग्नं रस्थितं मे विमलगुरुतरं तीर्थरूपं प्रपूज्यं शान्तं श्रीधर्मतत्त्वं यखिलमलहरं श्रीप्रभौलग्नचेतं आशानां शोभकं तं विविधसुयशसा मन्युदग्धं वरेष्ठं नौमि श्रीसंत रामं त्वनघसुविधुभं व्यापकं बोधदं वै अद्वैतानन्दरूपात् प्रणतजनगणा भीष्टदं देव्यरूपं यत्संगात् पापतापः सपदिरधिगता मे सदा ज्ञानमूलः नष्टास्तं रामरूपं शरणगतजन क्लेशपञ्चादिहारं श्रोत्रियं संत रामं बहुलभवभयघ्नजनानां भजेहं श्री संत राम गुरुवर्यमचिन्त्यमूर्तिं यज्ञानकानन विनाशन हव्यवाहम् उत्साहवर्धनमहं तु चतुःफलाय नमामि भक्तिभिरजं तनुवाङ्मनोभिः अचलमोक्षयुतं मम दैवतम् सकलशास्त्ररहस्यविदं गुरुं विदितविश्वविभुं शिवमीश्वरं निखिलवादिमतान्धनिवारकम् अनुपमागमशास्त्ररतं परम् सुवरदास्यमखण्ड सुखास्पदं चरणभक्तभवाभिविदाहकं परमपावनमेव मनोभज यतो जायते पाल्यते येन विश्वं जनेभ्यः परं लीयते यत्र विश्वं यदा तत्त्वमस्यादिजन्यं विबोधं भजेतं गुरुं चात्मनस्तस्य यो वै सच्चित् ज्ञानमनन्तमक्षरमहत् दीप्तिस्वरूपं प्रभुं आनन्दं यजमद्वितीयममितं श्रीसन्तरामं गुरुं మాయాతీతమపారసత్వగుణగం శాంతం మహాభారతం కైవల్యం ప్రణమామ్యహం కవివరం శ్రీపాదగంగాఫలం మాయాదిదుఃఖై పరిపీడితస్తై పాదాబ్జోరేణుభిరంకితోహం శ్వేతధ్వజం సద్గురుసంతరామం వందే మృతం లక్ష్మణదాసశిష్యః గురుస్తోత్రకం యః పఠేత్ పుణ్యదేహి గృహీ భూపతి బ్రహ్మచారీ చ సాధు లభేత్ ధర్మ కామాది మోక్షం హి భక్త్యా గురుర్వాక్య నిష్ఠః సదా వాంగ్మనోభిః. ఇతి శ్రీ సంత్రామ స్తోత్రం సంపూర్ణం.